गुरुब्रह्मा गुरुविष्णु गुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र विशेषणविशेष्यभावः तत्र स्वरूपमहोदयस्य करपत्रम् अस्ति तत्र विशेषणविशेष्यसम्बन्धः भावः यः पदयोः मध्ये वर्तते सः सम्बन्धः तत्र पदार्थयोः मध्ये कश्चन सम्बन्धः वर्तते तस्मात् आगतः सम्बन्धः इति तत्र मूलविषयः तस्मात् तत्र अनेकान् विषयान् तत्र प्रतिपादितवान् स्वरूपमहोदय अतः तत्र गतवर्गे ये विषयाः वयं चर्चितवन्तः तान् आदाय अद्य तत्र आदौ तत्र सुधा भगिन्याः उपस्थापनं वर्तते अतः कृपया सुधा भगिनी
अस्तु महोदय नमस्कारः नमस्सर्वेभ्यः वयं गते सप्ताहे यान् विषयान् अधीतवन्तः तेषाम् अवलोकनम् अत्र स्मर्तव्याः अंशाः के इत्युक्ते प्रथमतया विशेष्यं शब्दद्वयम् अर्थसम्बद्धं न तु शब्दसम्बन्धं विशेष्यः अपि च विशेषणं द्वौ अपि पदार्थौ न तु पदौ विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति इति उदाहरणरूपेण उन्नतः वृक्षः अत्र लोके यः पदार्थः वर्तते सः एव विशेष्यः अत्र वृक्षः इति शब्दः विशेष्यवाचकः अस्ति तस्मिन् वृक्षे यः गुणः नाम औन्नत्यम् अस्ति तदेव विशेषणम् अत्र उन्नतः इति विशेषणवाचकपदम् अस्ति औन्नत्यम् इति मतुप्रत्ययस्य योजनेन औन्नत्यवान् वृक्षः इति भवति तद् उन्नतः वृक्षः एव सूचयति तादृशम् अस्माकं मूलवाक्यं विद्याधरी पुस्तके यदि आसीत् घटवद्भूतलम् इति तत्र घटः एव विशेषणम् इति वयं ज्ञातवन्तः भूतले घटः अस्ति घटवत् इति विशेषणवाचकपदमेव अस्ति अस्मिन् भूतले घटः अस्ति येन भूतलं विशिष्यते अतः अत्र घटवत् इति विशेषणवाचकपदं घटः एव विशेषणम् इति ज्ञातवन्तः अत्र विशेषणवाचकशब्दाः गुणविषये एव भवन्ति अतः गुणवाचकशब्दाः इति अपि नाम्ना जायन्ते गुणवाचकशब्दाः त्रिविधाः केवलं गुणवाचकशब्दाः केवलं गुणिवाचकशब्दाः अपि च गुणवाचक अपि गुणिवाचकशब्दाः अत्र केवलं गुणवाचकशब्दाः इत्युक्ते एते शब्दाः गुणम् एव वदन्ति उदाहरणरूपेण शक्तिः श्रद्धा बलं धैर्यं श्रमः भयम् एते शब्दाः एते गुणस्य आश्रयस्य विषये कापि सूचना न दास्यति उदाहरणरूपेण श्रद्धा बालिका इति वक्तुं न शक्नुमः अस्यां बालिकायां श्रद्धा अस्ति इति एव वक्तुं शक्नुमः श्रद्धा बालिका श्रद्धा इति वदनेन केवलं श्रद्धा इति गुणः एव उच्यते श्रद्धा कुत्र अस्ति कस्मिन् अस्ति अथवा एतादृशी सूचना न प्राप्यते अत्र विशेषणरूपेण प्रयोगं कर्तुं न शक्नुमः यथा श्रद्धा बालिका एतादृशप्रयोगं कर्तुं न शक्नुमः केवलं गुणिवाचकशब्दाः इति गुणवद्वाचकाः इति अपि उच्यन्ते उदाहरणम् अस्ति उन्नतः विशालः उत्तमः सुन्दरः एते शब्दाः एकदृष्ट्या एते शब्दाः गुणिवाचकाः एव भवन्ति अन्यदृष्ट्या एते शब्दाः केवलं गुणिवाचकाः इति न वक्तुम् अपि शक्नुमः गुणिवाचकाः इत्युक्ते उदाहरणम् उत्तमः बालकः इति स्वीकुर्मः चेत् अत्र उत्तमः इत्युक्तौ उत्तमत्वगुणविशिष्टः उत्तमत्वगुणः यस्मिन् अस्ति तदेव गुणिनं सूचयति एते गुणविशिष्टगुणिवाचकाः अपि तेन गुणेन युक्तं गुणिनं बोधयति। अतः एकदृष्ट्या केवलं गुणिवाचकशब्दाः अपि अपरादृष्ट्या केवलं गुणिवाचकशब्दाः इति न वक्तुं शक्नुमः, यतोहि गुणविशिष्टगुणिवाचकाः। अत्र द्विवारं कथनस्य आवश्यकता का इत्युक्ते स्पष्टीकरणार्थम् एव तादृशं भवन्ति इति तस्य उत्तरम् अस्ति। गुणविशिष्टगुणिवाचकाः इत्युक्ते गुणि इत्युक्ते यस्मिन् सः गुणः अस्ति, तर्हि पुनः गुणविशिष्ट इति द्विवारं वदनस्य आवश्यकता का इति वयं दृष्टवन्तः। तत्र न अपेक्षितं, केवलं स्पष्टीकरणार्थम् एव उच्यते। गुणवाचकाः अपि गुणिवाचकाः अपि एते शब्दाः गुणवाचकत्वेन अपि च गुणिवाचकत्वेन अपि प्रयुज्यन्ते। यथा वर्णशब्दाः शुक्लः, कृष्णः, नीलः, एते शब्दाः। अत्र नीलः इति गुणवाचकः इत्युक्ते नीलवर्णः एव, अस्मिन् अर्थे पुंलिङ्गे एव भवन्ति, नियतलिङ्गे पुंलिङ्गे एव भवति। नीलवर्णेन युक्तः कश्चन इति चेत् अत्र गुणिवाचकः अस्मिन् अर्थे त्रिषु लिङ्गेषु भवति। अत्र विशेषलिङ्गता अस्ति, विशेषस्य लिङ्गम् अनुसरति। उदाहरणरूपेण यथा नीलः आकाशः, नीला माला, नीलं पुष्पम्, एतादृशं वक्तुं शक्नुमः। अत्र नीलः इति शब्दे गुणवाचकता अपि अस्ति, गुणिवाचकता अपि अस्ति, किन्तु एकस्मिन् समये एकमेव भवितुम् अर्हति, गुणवाचकता अथवा गुणिवाचकता, द्वयोः मध्ये विरोधः वर्तते, अतः एकस्मिन् समये एकमेव भवितुम् अर्हति। अत्र रसवाचकशब्दाः अपि तादृशम् एव भवन्ति, लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः, एते शब्दाः। अत्र मधुरः इति गुणवाचकः, मधुर रुचिः इत्यर्थे भवति। मधुररसयुक्त युक्तः चेत् त्रिषु लिङ्गेषु भवन्ति, यथा मधुरः शाकः, मधुरा शर्करा, मधुरं मोदकम् इति वक्तुं शक्नुमः। अत्र अर्थस्य परिवर्तनम् अपि भवितुम् अर्हति, केवलं गुणिवाचकशब्दः इति मतुप्रत्ययस्य योजनेन गुणिवाचकशब्दः निष्पन्नः। मतुप्रत्ययस्य योजनेन एव न, मतु अर्थकप्रत्ययस्य योजनेन अपि भवन्ति। यथा श्रद्धा इति शब्दः मतुप्रत्ययस्य योजनेन श्रद्धावान् इति भवति, बलं बलवान् अथवा इनि प्रत्ययस्य योजनेन बली भवति, धैर्यं धैर्यवान् अस्ति, संयमः इति संयमी भवति, उत्साहः इति उत्साही भवति। केवलं गुणिवाचकशब्दः भावार्थकप्रत्ययस्य योजनेन गुणवाचकशब्दः निष्पन्नः। अत्र भावार्थकप्रत्ययः अस्ति त्व प्रत्यय, तल् अथवा शै इति इत्यस्य योजनेन गुणवाचकशब्दाः निष्पन्नाः। यथा उत्तमः इति त्वप्रत्ययस्य योजनेन उत्तमत्वम् इति भवति, तल् प्रत्ययस्य योजनेन उत्तमता, अपि च शै प्रत्ययस्य योजनेन औत्तम्यम् इति भवति। विशालः तादृशमेव विशालत्वं, विशालता, वैशाल्यं। सुन्दरः अत्र सुन्दरत्वं, सुन्दरता अथवा सौन्दर्यम् इति भवति। यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र भवति, अतः कोऽपि प्रत्ययस्य आवश्यकता नास्ति। किन्तु मतुपर्त्ययः अथवा भावार्थीयाः प्रत्ययाः प्रयोक्तुं शक्याः। अत्र पीतः इति पीतः अपि च पीतत्वं द्वौ अपि गुणौ एव, इत्येतौ द्वौ गुणवाचकशब्दौ समानौ एव। पीतं वस्त्रम् अत्र गुणि पीतम् इति गुणिवाचकशब्दः अस्ति त्वप्रत्ययस्य योजनेन पीतत्वम् इति गुणवाचकशब्दः निष्पन्नः अतः पीतः पीतत्वं द्वौ समानौ तादृशं पीतं वस्त्रम् अत्र पीतम् अथवा पीतवत् वस्त्रं द्वौ अपि समानौ अस्ति पीतः इति गुणवाचकशब्दः अस्ति मतु प्रत्ययस्य योजनेन पीतवत् इति गुणिवाचकशब्दः निष्पन्नः तत्र पीतं पीतम् अथवा पीतवत् इति द्वौ शब्दौ समानौ अत्र पुनस्मरणरूपेण उन्नतः वृक्षः इति वदामश्चेत् उन्नतः इति गुणिनं इत्युक्ते वृक्षं बोधयति विशेष्यः पदार्थः न तु पदं पदम् अत्र किम् अस्ति इति चेत् विशेष्यवाचकम् अस्ति वृक्षः शब्दः इति एव तथैव उन्नतः इति विशेषणवाचकम् अस्ति अत्र येन वृक्षः विशिष्यते पृथक् क्रियते औन्नत्यम् एव अत्र विशेषणम् औन्नत्येन वृक्षः विशिष्यते पृथक् क्रियते येन विशिष्यते इत्युक्ते अत्र उन्नतः तथा नास्ति परन्तु औन्नत्यं तथा अस्ति अतः औन्नत्यमेव अत्र विशेषणम् समानाधिकरणम् असमानाधिकरणं कथं भवति विशेषणविशेषयोः मध्ये इति अपि वयम् अधीतवन्तः अत्र विशेषणविशेषयोः समानाधिकरणं नास्ति यतोहि उन्नतः वृक्षः इति उदाहरणं नयामश्चेत् गुणि अत्र उन्नतः इति गुणिवाचकशब्दः तत् वृक्षमेव बोधयति द्वयोः विभक्ति इति समान एव अपि च एक अर्थमेव बोधयति इत्युक्ते अत्र उन्नतः अपि वृक्षमेव बोधयति वृक्षः अपि वृक्षमेव बोधयति अत्र अनेन समानाधिकरणम् अस्ति तस्मात् उन्नतः इत्युक्ते वृक्षः एव अतः उन्नतः शब्दः वृक्षं विशेषयितुं न शक्नोति उन्नतः वृक्षः च समानवस्तु अतः उन्नतः शब्देन वृक्षः न भिद्यते किन्तु औन्नत्यं भिन्नवस्तु वृक्षः भिन्नः अतः औन्नत्येन वृक्षः विशिष्यते अतः औन्नत्यं विशेषणं भवति वृक्षस्य विशेषणद्वयम् अपि अस्ति औन्नत्यम् इति एकगुणः वृक्षस्य एकं विशेषणम् तस्य कार्यम् अस्ति औन्नत्यम् इति गुणः अस्मिन् वृक्षे एव अस्ति अन्येषु वृक्षेषु नास्ति अतः इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति अत्र वृक्षे वृक्षत्वम् इति अपि जातिः अपि अस्ति वृक्षस्य द्वितीयविशेषणं तदस्ति तस्य कार्यमस्ति सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातीभ्यः सर्वान् वृक्षान् पृथक् करोति अत्र अन्येभ्यः पदार्थेभ्यः एतत् कथं भिन्नम् इति सूचयति वृक्षः अन्येभ्यः पदार्थेभ्यः यथा गृहात् यानात् मनुष्यात् भिन्नः वृक्षे वृक्षत्वम् अस्ति गृहे याने मनुष्ये तादृशवृक्षत्वं नास्ति अतः वृक्षत्वं जातिः अपि एकं विशेषणम् अस्ति इति अत्र अधिकविधविशेषणानि भवितुम् अर्हति इति अपि वयं दृष्टवन्तः भूतले यथा नीलः इति गुणः अस्ति भूतलत्वम् इति जातिः अस्ति घटः इति द्रव्यम् अस्ति अतः त्रिभिः भूतलं विशिष्यते ततः अत्र विशेषणत्रयं वर्तते तादृशमेव बालके औन्नत्यम् इति गुणः अस्ति बालकत्वम् इति जातिः अस्ति धनम् इति द्रव्यम् अस्ति लेखनक्रिया इति कर्म अस्ति घटाभावः इति अभावः अस्ति अत्र पञ्चपदार्थाः विशेषणानि भवन्ति समवाय अपि च विशेषविषये अस्य करपत्रस्य अन्ते परिशिष्टभागः अस्ति, तत्र लिखितम् अस्ति इति महोदयेन उक्तं, तावदेव महोदय।
बहु धन्यवादः भगिनी, बहु सम्यक्तया प्रतिपादितम् अस्ति भवत्या, समीचीनं, बहु समीचीनम् अस्ति भगिनी।
धन्यवादः महोदय।
तत्र सर्वं स्पष्टं स्यात् इदानीं यत् गतवर्गे वयं कृतवन्तः, अथ तत्र केवलं तत्र पुनः अग्रे किञ्चित् सर्तुं किञ्चित् वदामि, तदनन्तरं तत्र अग्रे सरामः। तत्र यथा भगिन्या उक्तं, तत्र विशेष्यं विशेष्यः अपि विशेषणं पदार्थः न तु पदम्, अपि तत्र यत्र वयं वदामः तत्र उन्नतः वृक्षः, तत्र उन्नतः वृक्षः इति पदद्वयमस्ति, किन्तु तत्र साक्षात् वृक्षः पदार्थः एव विशेष्यम्। अपि तत्र औन्नत्यम् इति यः गुणः तस्मिन् वृक्षे वर्तते सः एव विशेषणं, नाम पदार्थः विशेषणम् अपि तत्र पदार्थः अस्ति, औन्नत्यं यत् औन्नत्यं तत्र वृक्षे वर्तते। तत्र अग्रे गन्तुं, तत्र वयं जानीमः तत्र येन विशिष्यते तदस्ति विशेषणं, तत्र येन विशिष्यते तदस्ति विशेषणं, यत् विशिष्यते तदस्ति विशेष्यं। तत्र वृक्षः विशिष्यते केन विशिष्यते, येन नाम तत्र औन्नत्येन, यत् औन्नत्यं वृक्षे वर्तते तेन औन्नत्येन एषः वृक्षः विशिष्यते, अतः यत् विशिष्यते तदस्ति विशेष्यम्, अपि येन विशिष्यते तदस्ति विशेषणम्। अतः तत्र समानाधिकरणम् अपि न स्यात् इति गतवर्गे वयं पठितवन्तः, भगिनी अपि प्रतिपादितम् अस्ति, तत्र केवलम् एकः अंशः गतवर्गे वयं न चिन्तितवन्तः, नाम तत्र किमर्थं तत्र समानाधिकरणं न स्यात्, यतोहि तत्र घटवत् भूतलम् इति चिन्तयामः, तत्र भूतलं नाम तत्र देशविशेषं नाम किमपि स्थलं, भूतलं नाम स्थलं, तत्र अहम् अस्मिन् स्थले किमपि अहम् इच्छामि, एतत् स्थलम् इच्छामि, अन्यत् स्थलं न इच्छामि, अहं मम मित्रं पृच्छति किं स्थलं भवान् इच्छति इति, अहं प्रदर्शितुम् इच्छामि तत्र एतत् स्थलं, किन्तु एतत् स्थलं कथं प्रदर्शयामि, अस्तु अस्मिन् स्थले तत्र घटः अस्ति, घटः यस्मिन् स्थले अस्ति तत् स्थलम् अहम् इच्छामि, अतः तत्र तत् स्थलं घटेन विशिष्यते, अतः तत्र घटवत् भूतलम् अथवा घटवत् स्थलम् इति, तत्र साक्षात् स्थलं यदस्ति स्थलेन एव न विशिष्यते, अन्यत् किमपि आवश्यकम् अस्ति तत्र येन वयं तत्र पृथक् कर्तुं शक्नुमः, तत्र घटं स्वीकृत्य अहं वक्तुं शक्नोमि अस्तु यत्र घटः अस्ति तत् स्थलम् अहम् इच्छामि, अतः घटवत् भूतलम् एतत् भूतलम् अन्येभ्यः भूतलेभ्यः विशिष्यते घटेन, अतः तत्र घट इति विशेषणं भवति भूतलम् अथवा तत् स्थलं भवति विशेष्यं, घटेन एव विशिष्यते तत्र स्थलम् उपयुज्य एव तत्र स्वयं स्वेन एव तत्र वयं विशिष्य पृथक् कर्तुं न शक्नुमः, अन्य कोऽपि अन्यत् किमपि वस्तु आवश्यकं भवति, अतः तत्र अन्यत् तत्र विशेषणं भिन्नम् अस्ति विशेष्यं भिन्नम् अस्ति इति एव तत्र वार्ता अस्ति, तत्र विशेषणविशेषयोः मध्ये समानाधिकरणं न स्यात्, नाम विशेषणं भिन्नं भवेत् विशेष्यं भिन्नं भवेत्, नो चेत् विशेषणे तत्र सामर्थ्यं न भवति, पृथक् कर्तुं सामर्थ्यं न भवति, विशेषणं यदि समानं विशेष्यं विशेषणं समानमस्ति चेत् तत्र विशेषणे सामर्थ्यं नास्ति, पृथक् कर्तुं सामर्थ्यं नास्ति, अतः विशेषणम् अन्यत् किमपि वस्तु अन्य कोऽपि पदार्थः भवेत्, अतः तत्र समानाधिकरणं विशेषणविशेषयोः मध्ये समानाधिकरणं न स्यात् इति अस्ति। एतावत् वयं गतवर्गे पठितवन्तः। इदानीं तत्र विशेषणद्वयं विशेषणत्रयम् इति प्रवर्तमानः विषयः आसीत्। तत्र विशेषणद्वयं वयं पठितवन्तः, विशेषणत्रयमपि पठितवन्तः तत्र। अतः तत्र अत्र एतदपि हा अधिकानि अधिकविधविशेषणानि एतत् शीघ्रतया पठितवन्तः। तत्र तत्र त्रिभिः हा हा अस्तु। अतः हा इतः वयं पठामः तत्र बालके औन्नत्यम् इति गुणः इति तत्र हा एतत् पठामः तर्हि। हा तत्र तर्हि सुधा भगिनी बहु धन्यवादः, बहु समीचीनम् आसीत्।
धन्यवादः महोदय।
हा अस्तु, इदानीम् अग्रे सरामः तर्हि। तर्हि तत्र हा तत्र कः आदौ पठितुम् इच्छति? तत्र अन्ना भगिनी पठितुम् इच्छति वा तत्र?
अस्तु, पठामि।
बालके औन्नत्यम् इति गुणः इति।
बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यम्, लेखनक्रिया इति कर्म, घटाभावः इति अभावः। पञ्चभिः बालकः विशिष्यते, अतः विशेषणपञ्चकम् अस्ति। समवायविषये विशेषविषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रव्यं
द्रष्टव्यम्।
तत्र बालकः अस्ति, तस्य बहवः बहूनि विशेषणानि भवितुम् अर्हन्ति। यत् तस्य जातिः बालकत्वम् इत्युक्ते वयं तदेव जातिं किं दर्शयामः, बालकः इति न बालिका न वृद्धः, बालकत्वम् इति जातिः।
हा समीचीनम्। अतः बालकत्वम् इति जातिः विशेषणं भवति, यतोहि तेन अथवा तया जात्या वयं बालकः तत्र बालिका नास्ति, भिन्नः अस्ति बालि अथवा वृद्धः नास्ति इति तत्र पृथक् कर्तुं शक्नुमः। समीचीनम्। अतः तत्र जातिः अपि विशेषणं भवितुम् अर्हति, बालकः जात्या विशिष्यते, अतः बालकत्वम् इति जातिः विशेषणम् इति वक्तुं शक्नुमः। नाम तत्र विशेषणसामर्थ्यं जात्याम् अस्ति, बालकत्वम् इति जात्यां विशेषणसामर्थ्यम् अस्ति। समीचीनम्। तत्र बालके औन्नत्यम् इति गुणः तत्र तत्रापि तादृश हा
बालके औन्नत्यम् इति गुणः, तस्य गुणः अपि तस्य विशेषणं भवति। वयं एताम् एव बालकं पृथक् कुर्मः केन विशेषणेन, औन्नत्येन गुणेन।
नाम तत्र दशबालकाः सन्ति, तत्र केवलम् एषः बालकः उन्नतः अस्ति चेत् तत्र
तं पृथक् कुर्मः।
हा औन्नत्येन वयं पृथक् कुर्मः, औन्नत्येन एषः बालकः विशिष्यते, अतः औन्नत्ये अपि तत्र विशेषणसामर्थ्यम् अस्ति। समीचीनं। हा अपि इदानीं धनम् इति द्रव्यं तत्र उदाहरणत्वेन भवतु, तत्र दशबालकाः सन्ति।
तेषां हस्तेषु प्रायः बहूनि द्रव्याणि सन्ति, फलानि सन्ति अथवा किं पुस्तकानि सन्ति, परन्तु वयम् एताम् एव बालकं पृथक् कुर्मः, कथं द्रव्यम् इति धनं तस्य हस्ते अस्ति, तस्य विशेषणं केन विशिष्यते सः बालकः, धनम् इति द्रव्येन विशिष्यते।
हा धनेन एषः विशिष्यते, अतः तत्र धनम् इति द्रव्ये अपि तत्र विशेषणसामर्थ्यम् अस्ति हा समीचीनं हा अस्तु इदानीं तत्र अग्रे अन्य कोऽपि करोतु हा समीचीनं भगिनि उत्तमम् अस्ति अस्तु अग्रे तत्र अशोक् महोदय इदानीं तत्र लेखनक्रिया इति कर्म तत् कथं विशेषणं भवितुमर्हति तत्र तस्यां क्रियायां तत्र सामर्थ्यं कथम् अस्ति इति कथं प्रदर्शयामः उदाहरणं किमपि वदतु
प्रायः बहु बालकाः क्रीडन्ति एकबालकः लिखति लेखनक्रियायाः एतत् बालकः पृथक् करोति
हा समीचीनम् उत्तमं हा एषः बालकः लिखति अन्ये बालकाः न लिखन्ति अतः तत्र अस्मिन् बालके लेखनक्रिया अस्ति अतः तत्र लेखनक्रियया एषः बालकः विशिष्यते अतः तत्र लेखनक्रियायां तत्र विशेषणसामर्थ्यम् अस्ति समीचीनं हा इदानीं तत्र घटाभावः इति
बालकः घटः नास्ति समीपे घटः अस्ति घटे घटाभावः नास्ति बालके घटस्य अन्योन्यभावः अस्ति अतः घटाभावः बालकं घटात् पृथक् करोति
अतः समीचीनं हा किन्तु तत्र अन्योन्यभावः अस्ति चेत् तत्र सर्वेषु यः कोऽपि तत्र घटः नास्ति ते सर्वे तत्र तेषु सर्वेषु तत्र घटस्य अन्योन्यभावः भवति खलु अतः तत्र एतत् अतः तत्र अत्यन्तः भावः स्वीकुर्मः तत्र तदपि उदाहरणं वक्तुं शक्नोति वा
कः उदाहरणं महोदय
किमपि उदाहरणं यथा तत्र अना भगिन्या स्वीकृतं तत्र धनम् अस्ति द्रव्यम् अस्ति इति तत्र हस्ते दशबालकाः सन्ति हस्ते तत्र किमपि गृह्णन्ति
बहु बालकाः सन्ति तेषां हस्ते घटः अस्ति एकबालकस्य हस्ते एव घटः नास्ति अतः अत्यन्त भावः अस्ति एतद् एष बालके अतः घटभावस्य घटभावं विशिष्यते
हा घटभावेन घटस्य अभावेन एषः बालकः विशिष्यते समीचीनं हा अतः तत्र अभावः यः अस्ति तस्मिन्नपि तत्र विशेषणसामर्थ्यं तत्र पृथक् कर्तुं सामर्थ्यम् अस्ति समीचीनं महोदय हा अतः तत्र गुणः जातिः द्रव्यम् अपि तत्र अभावः कर्म इति पञ्चसु पदार्थेषु तत्र विशेषणसामर्थ्यम् अस्ति विशेषणं भवितुम् अर्हन्ति ते सर्वे किन्तु तत्र समवायः अपि विशेषः तत्र तस्मिन् विषये तत्र परिशिष्टे तत्र तस्य विवरणं दत्तमस्ति तत्र वार्ता नाम तत्र समवायः अपि तत्र विशेषः विशेषणं न भवितुम् अर्हन्ति इति एव वार्ता अस्ति किन्तु कथम् अपि तस्य विवरणम् अन्ते परिशिष्टभागे एतत् सर्वं दत्तमस्ति समीचीनं महोदय अग्रे भवान् एव पठति वा तत्र
विशेषणानां विशेषणवाचकपदानि बालके विद्यमान औन्नत्यस्य विशेषणवाचकपदम् उन्नतः बालके विद्यमानधनस्य विशेषणवाचकपदं धनवान् बालके विद्यमानलेखनक्रियायाः विशेषणवाचकपदं लेखनक्रियावान् बालके विद्यमानघटाभावस्य विशेषणवाचकपदं घटाभाववान् बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव विशेषाणां विशेषणः विशेष्ये तिष्ठन्ति विशेषवाचकपदं विशेष्यम् एव निर्दिशति. उदाहरणं दीयते, बालके औन्नत्यम् अस्ति, औन्नत्यं विशेषणं. यदि विशेषणवाचकपदम् इच्छामि तदा बालके विद्यमान औन्नत्यस्य उन्नतः बालकः इति.
समीचीनं, तत्र उन्नतः बालकः इति वदामः, तत्र उन्नतः एव विशेषणवाचकपदम् अस्ति. उन्नतः इति औन्नत्यं बोधयति, औन्नत्यम् अस्ति इति बोधयति. समीचीनं महोदय, हा समीचीनं. अग्रिमं,
तादृशे धनं, बालके धनम् अस्ति, धनं विशेषणं, विशेषवाचकपदं धनवान्, धनवान् बालकः इति उच्यते. धनवान् विशेषणवाचकपदं. बालके, बालकः लिखति, लेखनक्रिया विशेषणं, विशेषवाचकपदं लेखनक्रियावान्, लेखनक्रियावान् बालकः इति वक्तुं शक्नुमः. बालके घटाभावः अस्ति, घटाभावः विशेषणं, घटाभाववान् बालकः इति वक्तुं शक्नुमः. अतः घटाभाववान् विशेषणवाचकपदम्. बालकः एक पदार्थः अस्ति, अतः यदि वयं बालकः इति उच्यते तर्हि बालकः पदार्थः इव.
समीचीनं, नाम तत्र अस्मिन् पदार्थे बालकत्वम् अस्ति इति एव वार्ता खलु.
बालकः एव, बालकशब्दः एव, बालकशब्दः अपि विशेषणवाचकपदम्
इति तत्र वैलक्षण्यम् अस्ति. अन्ये तत्र विशेषणानि, अन्यानि विशेषणानि, तत्र विशेषणवाचकपदं किञ्चित् भिन्नमस्ति, किन्तु अत्र बालकत्वम् इति विशेषणस्य वाचकपदं बालकः एव इति अस्ति. समीचीनं महोदय, हा. अतः तत्र विशेषणवाचकपदं नाम तत्र उन्नतः बालकः इति, अपि धनवान् बालकः, लेखनक्रियावान् बालकः. तत्र उन्नतः बालकः इति यत्र वदामः, उन्नतः बालकः, तत्र समानाधिकरणम् अस्ति, नाम समानविभक्तितत्वम् अस्ति. किन्तु तत्र औन्नत्येन इति वदामः चेत्, औन्नत्येन इति तत्र समानविभक्तितत्वं नास्ति. औन्नत्येन इति तृतीया विभक्ति, विशेषणस्य तृतीया विभक्ति, विशेषण, तत्र औन्नत्येन बालकः विशिष्यते. अतः तत्र समानाधिकरणं न भवति. औन्नत्यं भिन्नम् अस्ति, बालकः भिन्नम् अस्ति, तत्र समानाधिकरणं नास्ति. किन्तु यत्र विशेषणवाचकपदं तादृशम् अस्ति, तत्र समानविभक्तिकत्वं भवति, यतोहि तत्र विशेषणविशेषभावः व्याकरणरीत्या यत् अस्ति तद् भवति. अत्र घटाभाववान् अपि सर्वं भवति. हा समीचीनं
महोदय, भिन्नता कारणात् एव असमानाधिकरणम् इति न वक्तुं शक्नुमः किल.
समानाधिकरणं
अधिकारण
सत्यं सत्यं सत्यं, न नाम समानाधिकरणं नाम तत्र यथा तत्र उक्तमासीत्, तत्र समानाधिकरणं नाम अत्र किं स्वीकृतमस्ति, अत्र एकनिमिषं, तत्र हा, तत्र समानाधिकरणं नाम द्वयोः पदयोः समानि विभक्तिकत्वम् एकार्थबोधकत्वम्. तत्र एकमेव अधिकरणम् इति नास्ति, हा, तत्र अत्र तत्र समानाधिकरणम् इति तत्र न्यायरीत्या नास्ति महोदय, केवलम् अस्मिन् प्रसङ्गे. समानाधिकरणं नाम समानविभक्तिकत्वम् एकार्थबोधकत्वम्.
अस्तु,
हा, नाम तत्र उन्नतः इत्युक्ते वृक्षः एव अथवा बालकः उन्नतः बालकः नाम उन्नतः कः तत्र बालकः अतः तत्र उन्नतः बालकं बोधयति अतः एकार्थबोधकत्वम् अस्ति अपि उन्नतः अपि बालकः समानविभक्तिकत्वं भवति इति
अस्तु महोदय पूर्वं वयं अन्य
आमामां सत्यं सत्यं सत्यम् अत्र अत्र समानि समानाधिकरणमिति यतोहि एतत् करपत्रम् अस्ति खलु महोदय तत्र व्याकरणविषयमपि अस्ति अतः तत्र किञ्चित् हा
एतद् व्याकरणसंज्ञा अस्ति वा महोदय
समानाधिकरणम् इति तत्र हा यतोहि तत्र विशेषणविशेष्यभावः यत् अस्ति तत्र समानलिङ्गं समानवचनं समानविभक्ति इति अस्ति खलु हा अतः तत्र समानम् अस्ति इति कृत्वा तत्र एतत् पदं स्वीकृतम् अस्ति अहं न जानामि यत् तत्र व्याकरणे एतस्य प्रयोगः भवति न वा इति न जानामि किन्तु अत्र करपत्रे एतत् स्वीकृतम् अस्ति महोदय
अस्तु महोदय
समीचीनं प्रश्नः तु समीचीनः हा अस्तु अग्रे सरामः तर्हि इदानीं तत्र बालके तत्र हा कुत्र स्मः वयं हा हा अतः तत्र बालकत्वस्य विशेषणवाचकपदं बालकः एव इति तत्र अत्र वैवलक्षणम् अस्ति अस्तु अग्रे सरामः तर्हि धन्यवादः अस्तु अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठितुम् इच्छति वा
नमस्ते महोदय पञ्चनिमेषानन्तरं पठामि वा
अस्तु अस्तु चिन्ता मास्तु अस्तु चिन्ता मास्तु भगिनि अस्तु तत्र अग्रे तत्र नरसिंह महोदय पठितुम् इच्छति वा अग्रे
पठामि महोदय एक एव विशेषणं यदा कोऽपि केवलं बालकः वदति तदा विशेषणं केवलं बालकत्वमेव तथा च तत्र बालके विद्यमान बालकत्वस्य विशेषणवाचकपदं बालक एव तत्र यत् वयं दृष्टं बालकत्व यत्र अस्ति तद् बालक एव इति तत्र समानाधिकरणे भवति इति वा महोदय
तत्र एकमेव पदमस्ति बालकः अस्मिन् पदार्थे बालकत्वम् अस्ति इति जानीमः खलु
विशेषणं विशेषम् एकमेव अस्ति तत्र
बालकत्वम् अस्ति विशेषणं बालकत्वम् अस्ति
विशेषं बालकः अस्ति
विशेष्यः बालकः अस्ति तत्र तत्र वयं बालकत्ववान् बालकः इति अपि वक्तुं शक्नुमः किन्तु तत्र हा किन्तु तत्र द्विवारम् उक्तम् इति भवति
यत् घटाभाववान् बालकः इति पूर्वम् उक्तं यत् बालकत्ववान् बालकः इति अपि वक्तुं शक्नुमः परन्तु तत्र द्वित्वं भवति इति
हा बालकः इति यदि वदामः तत्र वयं जानीमः तत्र वृक्षः इति यदि वदामः तत्र वृक्षत्वम् अस्ति इति एव वार्ता खलु तत्र विशेषणं वृक्षत्वम् अस्ति इति एव वार्ता खलु अतः
पुनर्वदनस्य आवश्यकता नास्ति तत्र पुनः
तत्र बालकः इति यदि वदामः तत्र विशेषणवाचकपदं बालकः एव वदति नाम बालकत्वस्य विशेषणं बालकत्वम् इति विशेषणम् अस्ति बालके तस्य वाचकपदं बालकः एव भवति खलु अस्तु अग्रे
अतः बालकपूर्वोक्तरीत्या विशेष्यवाचकशब्दः न नव्योक्तरीत्या विशेषणवाचकशब्दः इदं भूमिकाद्वयमस्ति सदा विशेष्यवाचकशब्दस्य बालकरीत्या विशेष्यवाचकपदः नव्योक्तरीत्या इत्युक्ते इदानीं यत् उक्तं विशेषणवाचक इदानीं वयं पठितं तस्य अनुसारं विशेषणवाचकशब्दः अपि भवति इदं भूमिकाद्वयम् अस्ति सदा विशेषवाचकपदस्य
नाम तत्र केवलं यदि बालकः इति वदामः तत्र बालकः इति किं भवति विशेषणवाचकपदम् अपि भवितुम् अर्हति किन्तु यदि तत्र वयं वदामः तत्र घटाभाववान् बालकः तत्र किं भवति बालकः इति शब्दः तत्र विशेष्यवाचकपदशब्दः भवति
इति विशेषणं बालकः इति विशेष्यवाचकपदं भवति
भवति किन्तु केवलं बालकः इति वदामः तत्र तत् सः शब्दः एव तत्र विशेष्यवाचकः शब्दः भवति नाम तत्र वृक्षः इति वदामः तत्र वृक्षः विशेष्यः अपि विशेषणं वाचकपदं नाम यतोहि तत्र उन्नतः वृक्षः अस्ति चेत् तत्र विशेषवाचकशब्दः केवलं वृक्षः इति वदामः तत्र वृक्षत्वं वृक्षत्वविशिष्टपदार्थः इति कृत्वा तत्र विशेषणवाचकशब्दः भवति वृक्षः अस्तु समीचीनं वा
उन्नतः केवलं गुणिवाचकः तर्हि कथं विशेषणवाचकः इति प्रश्नः अस्ति
हा अग्रे पूर्वम् उक्तमस्ति तत्र उन्नतः केवलं गुणिवाचकः इति उक्तमासीत् इदानीं तत्र वयं वदामः तत्र उन्नतः इति तत्र विशेषणवाचकः इति इदानीम् उक्तवन्तः खलु हा इदानीमेव तत्र वयं बालके विद्यमानः औन्नत्यं तत्र वाचकशब्दं तत्र एतद् यत् पठितवन्तः उन्नतः इति अतः तत्र प्रश्नः अस्ति इदानीं तत्र उन्नतः केवलं गुणिवाचकः इति यथा तत्र त्रैविध्यं प्रदर्शितवन्तः तत्र उन्नतः इति शब्दः केवलं गुणिवाचकः शब्दः इति उक्तवन्तः किन्तु इदानीं वयं वदामः तत्र विशेषणवाचकः पदम् शब्दः अस्ति इति अतः तत्र कथम् इति प्रश्नः भवति तस्य समाधानम् अग्रे दास्यति अस्तु समीचीनं तत्र
धन्यवादः
धन्यवादः महोदय अस्तु अग्रे तत्र अन्य कोऽपि पठति वा तत्र धनश्री भगिनी अग्रे पठितुम् इच्छति वा धनश्री भगिनी नास्ति वा अस्तु अशोभा भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय पठामि तत्र तर्हि उन्नतः केवलं गुणिवाचकः तर्हि कथं विशेषणवाचकः उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम् उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानं द्वयमपि हा द्वय अग्रे पठामि द्वयमपि कथम् इति प्रश्नः उदेति गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं तदेव उन्नतः इत्युक्ते औन्नत्यरूपगुणविशिष्टः पदार्थः इति इत्युक्ते अनेन उन्नतशब्देन गुणी अपि सूचितः गुणः अपि सूचितः उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति अस्ति किल नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति केन शब्देन इदम् अवगम्यते उन्नतशब्देन एतदर्थम् उच्यते यत् गुणिवाचकः शब्दाः ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः अतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः नाम औन्नत्ययुक्तवृक्षः उन्नतशब्दस्य यः समग्र अर्थः तस्मिन् समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः इत्युक्ते एकः भागः इति अस्तु तत्र प्रश्नः अस्ति उन्नतः केवलं गुणिवाचकः तर्हि कथं विशेषणवाचकः भवति इति पूर्वं दृष्टवन्तः तत्र उन्नतः इति केवलं गुणिवाचकः शब्दः इति दृष्टवन्तः यत्र उन्नतः वृक्षः इति उक्तत्वात् वृक्षः एव उन्नतः तस्मिन् उन्नतः इति पदार्थः नास्ति अतः तत्र गुणि
उपरि उपरि न स्थातुं शक्नोति
उपरि वृक्षस्य उपरि स्थातुं न शक्नोति वृक्षः एव उन्नतः अतः तत्र गुणिं सूचयति उन्नतः इति उक्तत्वात् किन्तु अधुना उन्नतः इति विशेषणवाचकशब्दः इति पठितवन्तः. तत् कथं भवति इति विवृतम् अस्ति. द्वयमपि कथम् इति तत्र गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं तदेव इति. तत्र उन्नतः इति गुणविशिष्टगुणिनं सूचयति इति. तत्र उन्नतः इति उक्तत्वात् औन्नत्यरूपगुणविशिष्टपदार्थः किमपि अस्ति. यस्मिन् किमपि पदार्थः अस्ति तस्मिन् औन्नत्यरूपगुणविशिष्टः वर्तते इति. इत्युक्ते तत्र अनेन उन्नतशब्देन गुणी अपि सूचितः गुणः अपि सूचितः इति. तत्र उन्नतः वृक्षः इत्युक्ते तत् उन्नतशब्देन वृक्षः सूचितम् अपि च गुणः अपि इत्युक्ते औन्नत्यम् इति गुणः अपि सूचितं भवति. उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल. तत्र उन्नतः वृक्षः इति तदेव तत्र वाक्ये औन्नत्यम् इति गुणः अपि सूचितः भवति. तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति इति. यथा पूर्वम् उक्तं तत्र उन्नतः वृक्षः इति यथा शृण्मः तदा औन्नत्यम् इति वृक्षे अस्ति इति ज्ञातुं शक्नुमः. केन शब्देन इदम् अवगम्यते इत्युक्ते उन्नतशब्देन एव. तत्र यत् उन्नत वृक्षः वा उन्नतः बालकः वा इति भवति चेत् तत्र औन्नत्यम् इति बालके अथवा वृक्षे अस्ति इति ज्ञानं भवति. अपि च उन्नत इति गुणः अपि भवति इति अपि ज्ञानं भवति. एतदर्थम् उच्यते यत् गुणिवाचकाः शब्दाः ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः इति. तत्र गुणिवाचकाः शब्दाः इत्युक्ते तत्र पूर्वं दृष्टवन्तः गुणिवाचकाः केवलं गुणिवाचकाः सन्ति चेत् तत्र उन्नतः विशालः उत्तमः सुन्दरः इति. ये एतादृशानि पदानि सन्ति चेत् ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः भवन्ति इति. यतोहि तत्र उन्नतः इति दृष्टवन्तः. विशालः इति अस्ति चेत् तत्र विशालः प्रासादः इति किमपि अस्ति चेत् तत्र वैशाल्यं सूचयति प्रासादे. तत्र अतः तत्र गुणिवाचकशब्दः भवति यतोहि वैशाल्यम् अस्मिन् अस्ति इति. अपि च विशालः इति गुणः अपि भवति. गुणविशिष्टगुणिवाचकाः भवन्ति अतः. तत्र गुणविशिष्ट इत्युक्ते गुणि इत्युक्ते तत्र विशालः इति उदाहरणे यस्मिन् विशालता अस्ति इति गुणविशिष्ट गुणिवाचकः. अपि च गुण इत्युक्ते विशालः एव. वैशाल्यम् इति गुणः भवति. गुणः भवति. अतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः. अतः तत्र उन्नतः इति उक्तत्वात् गुणः अपि अस्ति अन्तर्भूतः अस्ति तत्र उन्नत इति शब्दे अर्थः अर्थे गुणः अपि अन्तर्भूतः एव तत्र. नाम औन्नत्ययुक्तवृक्षः इति. तत्र उन्नतः वृक्षः इत्यस्मिन् तु औन्नत्ययुक्तवृक्षः इति भवति. अथवा किमपि अन्यत् वस्तु उन्नतः अस्ति चेत् तस्मिन् तद् वस्तु औन्नत्ययुक्त इति तस्य वर्णनं भवति.
अतः तत्र तत् तेन वयम् अवगच्छामः तत्र उन्नतः पदार्थः कश्चन पदार्थः अस्ति. औन्नत्ययुक्तपदार्थः कश्चन अस्ति
तत्र औन्नत्यम् इति गुणः अस्ति. अतः औन्नत्ययुक्त कस्यचित् पदार्थः अस्ति इति.
इति अर्थे समग्र अर्थे नाम औन्नत्ययुक्तवृक्षः इति समग्र अर्थः तस्मिन् एकभागः अस्ति औन्नत्यम् अतः तत्र औन्नत्यम् इति तत्र गुणः अपि तत्र भवति तत्र एकवृत्ति नाम औन्नत्यम् इत्यस्य एकदेशवृत्ति तदपि अन्तर्भूतः अस्ति नाम समग्र अर्थे सः तत्र औन्नत्यं गुणः अपि अन्तर्भूतः अस्ति अतः तत्र
तदेव तत्र मुख्यविषयः इति मन्ये तत्र तस्य एकदेशवृत्तिः तस्य एकदेशवृत्तिः इति नामकरणं भवति अथवा एकदेशवृत्तिः इति उच्यते इति
नाम तदपि अन्तर्भूतः अस्ति
अस्ति इति एकः भागः
अर्थे एकभागः अस्ति एकभागः अस्ति इति समीचीनं भगिनि बहु समीचीनम्
अतः तत्र विशेषणवाचकशब्दः अपि भवति इति
भवितुम् अर्हति इति
भवितुम् अर्हति इति न तु केवलं गुणिवाचकः
विवरणं तस्य विवरणं समीचीनम् अस्तु कोऽपि प्रश्नः अस्मिन् विषये एतावत् तत्र अस्माकं प्रश्नः तत्र उन्नतः तत्र केवलं गुणिवाचकशब्दः इति उक्तं किन्तु विशेषणवाचकशब्दः अपि उक्तं तत्र द्वयं कथम् इति तस्य समाधानं तस्य उत्तरम् इदानीं अस्तु अस्तु समीचीनं धन्यवादः भगिनी अस्तु अग्रे
महोदय कश्चन प्रश्नः
वदतु भगिनि
महोदय अत्र समग्र अर्थे समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः इति उक्तत्वात् एकदेशवृत्तिः कस्य एकदेशवृत्तिः भवति महोदय
औन्नत्यस्य
औन्नत्यस्य एकदेशवृत्तिः कुत्र भवति वृक्षे इति अर्थः
न न समग्रे अर्थे नाम तत्र समग्रे अर्थे इति तत्र उन्नतशब्दस्य यः समग्र अर्थः तत्र अर्थः इति तत्र उन्नतः इति यः तत्र अर्थः इति पदार्थः नास्ति अत्र केवलं तत्र औन्नत्ययुक्तवृक्षः इति अर्थः समग्र अर्थः
तथा समीचीनं भवति
तावदेव तत्र पदार्थः नास्ति अत्र
समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः
इत्युक्ते एकः भागः
एकः भागः किन्तु कुत्र इति स्पष्टता
गुणविशिष्टगुणि इति वदामः खलु नाम गुणविशिष्टगुणि तत्र गुण
इत्युक्ते गुणविशिष्टगुणिनि एकदेशवृत्तिः इति स्वीकर्तव्यं वा
तत्र अर्थः तत्र पदस्य अर्थः उन्नतः इति शब्दस्य अर्थः तत्र पदार्थः नास्ति उन्नतः इति शब्दस्य साक्षात् अर्थः अस्ति तत्र औन्नत्ययुक्तः कश्चन पदार्थः इति खलु उन्नतः नाम अर्थः कः तस्य अर्थः कः औन्नत्यविशिष्ट कश्चन पदार्थः अतः तत्र कश्चन पदार्थः अस्ति यस्मिन् औन्नत्यं वर्तते अतः तत्र औन्नत्यम् इति अपि आगतमस्ति तस्य समग्र उन्नतः इति शब्दस्य समग्र अर्थे
अस्तु
अर्थः नाम व्याकरणरीत्या अर्थः न तु पदार्थः इति
अस्तु अग्रे पठामि वा महोदय
औन्नत्यम् इति तत्र पदम् औन्नत्यम् इति पदं तत्र तस्य एक औन्नत्यम् इति पदम् अर्थे एकभागः अस्ति नाम एकं पदम् अस्ति इति भवति वा
महोदय एकः प्रश्नः अस्ति अत्र उन्नतः इति शब्दे भागद्वयम् इति स्वीकर्तुं शक्नुमः भागद्वयम् अस्ति तादृशम् अवगम्यते वा एकभागम् अस्ति गुणः इति औन्नत्यम् इति बोधयति द्वितीयभागः अस्ति गुणि वृक्षः बोधयति इति
तादृशं कर्तुं शक्नुमः भगिनि तत्र गुणविशिष्टगुणि इति किन्तु तत्र किञ्चित् अपि वक्तव्यमस्ति, अग्रे तदपि आयाति. भागद्वयम् इति चिन्तितुं शक्नुमः. तत्र कश्चन पदार्थः इति नाम तत्र केवलम् उन्नतः इति वदामश्चेत् तत्र वृक्षः इति न जानीमः खलु. तत्र केवलम् उन्नतः इति वदामश्चेत् तत्र औन्नत्यविशिष्ट अथवा औन्नत्ययुक्त कश्चन पदार्थः इति ज्ञानं भवति. किन्तु तत्र कः पदार्थः इति तेन न अवगम्यते. किन्तु यदि पूर्णवाक्यमस्ति उन्नतः वृक्षः, तदा वयं जानीमः उन्नतः इत्युक्ते कः, वृक्षः. किन्तु उन्नतः इति शब्दः अस्ति चेत् तत्र औन्नत्यविशिष्ट कश्चन पदार्थः अस्ति इति. समीचीनं खलु?
आं भगिनि. आं महोदय, धन्यवादः.
समीचीनम्. अस्तु अस्तु, जयलक्ष्मी भगिनी अग्रे
पठामि. केवलं गुणः वक्तव्यः चेत् औन्नत्यं, गुणविशिष्टगुणी यदा वक्तव्यः तदा उन्नतः इति एव प्रयोक्तव्यः. तदा औन्नत्यम् इति गुणः उन्नतः इति शब्देन बोधितः. किन्तु केवलं गुणः इति न, औन्नत्ययुक्तः वृक्षः इति बोधितः. नाम औन्नत्यम् अपि बोधितं, तद्युक्तः वृक्षः अपि बोधितः. अतः उन्नतः विशेषणवाचकः इति वदामः. स्वयं विशेषणं न, परन्तु विशेषणस्य अर्थः अस्मिन् गुणवाचकशब्दे अन्तर्भूतः. यदा उन्नतः वृक्षः इति वदामः चेत् उन्नतः इति शब्दे औन्नत्यम् अस्ति इति कृत्वा तत्र गुणः सूचितः अस्ति उन्नतः इति शब्दे. किन्तु उन्नतः वृक्षः इति यदा द्वयोः मिलित्वा यदा वदामः तदा उन्नतः इति शब्दः वृक्षस्य गुणः बोधयति इति कारणात् तदपि पदार्थः भवति. इत्युक्ते उन्नतः औन्नत्ययुक्तः वृक्षः एव बोधयति उन्नतः इति शब्दः इदानीम्. अतः उन्नतः इति विशेषणवाचकः इति वदामः, किन्तु स्वयं विशेषणं नास्ति. विशेषणस्य अर्थः एव तत्र इत्युक्ते वृक्षः, वृक्षे यत् यः गुणः अस्ति तदेव सूचयति. अतः उन्नतः इति विशेषणपदं भवति, न तु स्वयं विशेषणं. किन्तु औन्नत्यम् इति यत् गुणः वृक्षे अस्ति तत्तु स्वयं विशेषणं भवति.
भवति
अत्र उक्तम्.
तत्र उन्नतः इति तत्र औन्नत्यं यत् विशेषणम् अस्ति, साक्षात् विशेषणम् अस्ति, तं बोधयति इति कृत्वा तत्र उन्नतः इति पदस्य विशेषणवाचकः इति वक्तुम् इति व्यवहारः समीचीनः खलु. उन्नतः इति विशेषणं बोधयति, अतः विशेषणवाचकशब्दः इति वक्तुं शक्नुमः. तत्र कापि हानि नास्ति. अतः तत्र उन्नतः विशेषणवाचकः इति वक्तुं शक्नुमः. अस्तु,
तर्हि निष्कर्षः एवं, यद्यपि उन्नतशब्दः केवलं गुणिवाचकः, किन्तु अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः. यतोहि उन्नतः वृक्षः इति वदामः चेत् उन्नतः इति गुणिवाचकः वाचकशब्दः इव भाति, तथापि अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः अस्ति. इत्युक्ते औन्नत्यमपि अत्र सूचयति इति कारणात् तस्मिन् साक्षात् गुणः अपि वर्तते इति अत्र उक्तम्.
अस्तु, समीचीनं. तत्र केवलम् इति पदस्य तत्र अग्रे तस्य अर्थः कः इति अग्रे अपि किञ्चित् विवरणं दत्तमस्ति. समीचीनमस्ति भगिनि. अस्तु, कोऽपि प्रश्नः एतावत्? तत्र गुणि उन्नतः शब्दः गुणिवाचकः अस्ति, अपि तस्मिन् अर्थे तत्र गुणः अपि सूचितः, तस्य सङ्केतः अस्ति, अतः तत्र विशेषणवाचकः इति अपि वक्तुं शक्नुमः इति. अस्तु, समीचीनम्. इदानीं तत्र उन्नतः शब्दस्य सीमा का इति पश्यामः. धन्यवादः भगिनी. अस्तु, अग्रे तत्र
धन्यवादः महोदय.
धन्यवादः भगिनी. नीता भगिनी अग्रे पठितुम् इच्छति वा?
आमजि. उन्नतशब्दस्य सीमा का? तर्हि उन्नतः वृक्षः इत्यत्र उन्नतशब्दः विशेषणवाचकः तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते न तु वृक्षः इति वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः उन्नतः इत्येव वदामः चेत् कः उन्नतः इति न ज्ञायते कश्चन उन्नतः इत्येतावत् एव ज्ञायते इत्युक्ते वृक्षः वृक्षः इति शब्देन एव बोध्यते न तु उन्नतः इति शब्देन तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थः इति एतावत् एव अत्र उन्नतशब्दस्य विषये दत्तमस्ति यदि उन्नतः वृक्षः इति वदामः चेत् उन्नतः विशेषणवाचकपदम् उन्नतः वृक्षः उन्नतः विशेषणवाचकः पदं वृक्षः विशेष्यवाचकः तत् उन्नतः इति शब्देन गुणस्य बोधनं भवति औन्नतत्वं वा उन्नतत्वम् इति गुणः बोध्यते तत् वृक्षस्य गुणः औन्नतत्वम् इति विशेषण औन्नत्यं तादृशगुणेन एव वृक्षस्य बोधनं भवति एतावत् एव ज्ञायते किन्तु अत्र वृक्षः विषये किन्तु उन्नतशब्देन वृक्षस्य बोधनं न भवति यदि वृक्षः विषये वदामः चेत् केवलं उन्नतशब्दः न उन्नतः वृक्षः आवश्यकम् उन्नतः इति केवलं वदामः चेत् कः उन्नतः एतस्य ज्ञानं न भवति कश्चन उन्नतः अस्ति इति एव वयं ज्ञातुं शक्नुमः इत्युक्ते वृक्ष इति शब्देन वृक्षस्य एव बोधनं भवति न तु उन्नतशब्दस्य तर्हि उन्नतशब्देन वस्तुतः किं बोधते इत्युक्ते कश्चन पदार्थः अस्ति सः पदार्थः औन्नत्ययुक्त अस्ति एवं बोधनं भवति
हा समीचीनं नाम तत्र उन्नतः इति शब्देन तत्र कश्चन पदार्थः वर्तते अस्ति यस्मिन् औन्नत्यं वर्तते इति एव ज्ञानं भवति तत्र उन्नतः इति अस्ति चेत् वृक्षः अस्ति अथवा बालकः अस्ति इति न जानीमः उन्नतः इति केवलं कश्चन अस्ति इति एव ज्ञानं भवति अतः तत्र उन्नतः इति शब्दस्य सीमा वर्तते नाम तत्र गुणिवाचकः अस्ति सत्यं किन्तु तत्र उन्नतः बालकः अथवा उन्नतः वृक्षः इति यदा अस्ति चेत् तत्र गुणिवाचकः शब्दः भवति यतोहि उन्नतः नाम बालकः वा वृक्षः इति भवति किन्तु केवलम् उन्नतः इति भवति चेत् तत्र औन्नत्यविशेषपदार्थः कश्चन अस्ति इति एव ज्ञानं भवति हा समीचीनं भगिनि हा एतावत् कोऽपि प्रश्नः
न
हा अस्तु इदानीं तत्र अग्रे सरम धन्यवादः भगिनि हा
धन्यवादः
अग्रे तत्र पद्मा भगिनी पठितुम् इच्छति वा अग्रे अस्तु तत्र नो चेत् तत्र धनश्री भगिनी
तदर्थं तदर्थमेव उच्यते औन्नत्यरूपगुणेन युक्तम् इति अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकशब्दरूपेण औन्नत्यम् इति गुणः तत्र भवति. एकदेशः इत्युक्तौ एकः भागः. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति. वृक्षस्य बोधः अपेक्षितः चेत् वृक्षः इति एव शब्दः प्रयोक्तव्यः. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति, न तु वृक्षस्य बोधः. तदर्थमेव उच्यते औन्नत्यम् औन्नत्यरूपगुणेन युक्तम् इति. अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. अत्र एकदेश अस्य अर्थः एकभागः इति अस्ति.
सत्यं सत्यं भगिनि.
उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः इति तु ज्ञातं, परन्तु अवगतम् एकदेश अस्य अर्थम्
एकभागः इत्युक्तौ एकभागः
एकभागः वृक्षस्य एकभागः औन्नत्यम् अस्ति इति.
न न वृक्षस्य न, तत्र औन्नत्यरूपगुणयुक्त कश्चन पदार्थः तत्र तत्र गुणविशिष्टगुणी इति अस्ति खलु.
आम्
हा गुणविशिष्ट
अखण्डं यत् अस्ति नाम कश्चन पदार्थः अस्ति यत् औन्नत्यरूपगुणेन युक्तम् अस्ति. तस्मिन् अखण्डे पदार्थे एकः भागः तस्य औन्नत्यम् अस्ति, औन्नत्यगुणः अस्ति. नाम तस्मिन् पदार्थे अन्ये भागः अपि भवितुम् अर्हति, तत्र एकः भागः औन्नत्यम् अस्ति इति अर्थः अस्ति.
अत्र उन्नतशब्दस्य तादृशम् इति नास्ति, तत्र यथा तत्र अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः तत्र अस्तु. तत्र हा पदार्थे एकभागे तदपि भवितुं तत्र पदार्थे एकभागे औन्नत्यम् इति प्रायशः न भवति इति मन्ये भगिनी. हा केवलम् अर्थे केवलम् अर्थे समग्र अर्थे यथा पूर्वमुक्तं समग्रे अर्थे एकभागः तत्र गुणः भवति, तत्र औन्नत्यम् अस्ति इति साक्षात् पदं भवति.
अस्तु पदार्थ अर्थे एकभागः औन्नत्यम् अस्ति वृक्षस्य न कश्चन पदार्थस्य.
अर्थः इति नाम तत्र शब्दस्य अर्थः न तु पदार्थः. हा शब्दस्य समग्र अर्थः तत्र उन्नतः इति शब्दस्य अर्थः कः, पदार्थः न. किं पदार्थं पदार्थं सूचयति इति न, किन्तु उन्नतः इति शब्दस्य अर्थः अस्ति औन्नत्यविशिष्ट कश्चन पदार्थः खलु.
आमां
हा औन्नत्यविशिष्टपदार्थः. अतः तत्र औन्नत्यम् इति गुणः तस्मिन् अन्तर्भूतः अस्ति.
औन्नत्यम् इति गुणः तस्मिन् अन्तर्भूतः अस्ति.
हा अतः तत्र अर्थे तत्र समग्र अर्थे एकभागः अस्ति.
तदेव नाम औन्नत्य शब्दस्य शब्दे अन्ये अपि अर्थाः अन्तर्भूताः
इति किन्तु तत्र औन्नत्ययुक्तपदार्थः इति पदत्रयमस्ति, एकं पदमस्ति औन्नत्यम्, अतः तत्र अर्थे एकं पदम् अस्ति औन्नत्यम् इति तावदेव.
अस्तु अस्तु अस्तु. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः तत्तु स्पष्टम्. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः अपि न भवति. वृक्षस्य बोधः अपेक्षितः चेत् वृक्ष इति एव शब्दः प्रयोक्तव्यः. तदपि स्पष्ट एव अस्ति. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति. तत्तु अस्ति. केवल इति शब्देन पदार्थस्य बोधः न भवति, केवल औन्नत्यरूपेण कश्चन पदार्थः अस्ति इत्येव बोधः भवति.
हा इति अस्ति. अस्तु समीचीनं. हा अस्तु तत्र
महोदय अत्र किमर्थं न वृक्षस्य बोधः इति वदति, इत्युक्ते उन्नतः वृक्षः इति कथने इति नास्ति प्रायः.
न न हा हा केवलम् उन्नतः इति शब्देन
केवल उन्नतः इति शब्देन अस्तु किन्तु उन्नतः वृक्षः इति वदनेन अत्र उन्नतयुक्तशब्दः वृक्षः एव भवति खलु पदार्थः
उन्नतवृक्ष इति यदि वदामः तत्र उन्नतः नाम वृक्षः किन्तु केवलम् उन्नतः इति वदामश्चेत् तत्र कश्चन पदार्थः अस्ति यस्मिन् औन्नत्यम्
इत्युक्ते अत्र उन्नतरूपगुणेन युक्त कश्चन पदार्थः वृक्षः एव भवति यथा उन्नतः वृक्षः इति वदामः चेत्
हा सत्यं सत्यं हा सत्यं सत्यं हा तत्र
इत्युक्ते अत्र पदार्थस्य एव एकादेशभागः औन्नत्यं भवति खलु वृक्षत्वमपि अस्ति औन्नत्यमपि अस्ति इति कृत्वा वृक्षपदार्थस्य एकदेशभागः औन्नत्यम् इति वदामः चेत् समीचीनं भवति वा
प्रायश तदपि वक्तुं शक्नुमः भगिनि हा अहं चिन्तितवान् तत्र केवलं तत्र शब्दस्य अर्थः इति एव चिन्तितवान् किन्तु प्रायश पदार्थे अपि तत्र औन्नत्यं तत्र इति तदपि स्वीकर्तुं शक्नुमः इति मन्ये सत्यं भगिनि हा इति भाति हा इति भाति सत्यं
धन्यवादः
भगिनि हा अस्तु अग्रे सरामः तर्हि तत्र अग्रे
अहं पद्मा
हा पद्मा भगिनि अस्तु अस्तु समीचीनं भगिनि हा अस्तु तत्र अग्रे पठति
आहूतवान् तदा वैफै डिस्कनेक्षन् अभवत्
अस्तु अस्तु भगिनि अस्तु अस्तु हा अस्तु इदानीं तत्र अत्र तर्हि अग्रे इति अस्ति भगिनि हा ततः
तर्हि अग्रे उन्नतः इति शब्दः धर्मीवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्युक्तं तादृशः विद्यमानधर्मः वृक्षे अतः वृक्षः धर्मी उन्नतः च तस्य सूचकः अग्रे पठामि वा
धर्मीवाचकः
धर्मीवाचकः किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते तदर्थं वृक्षः वक्तव्यः इति उन्नतवृक्षयोः भेदः अत्र उन्नतः वृक्षः इति वाक्ये उन्नतशब्देन विद्यमान उन्नतः इति पदं सूचकः एव विशेषणसूचकः औन्नत्यम् इत्येव विशेषणम् अतः औन्नत्यम् इति धर्मः वृक्षे अस्ति अतः वृक्षः धर्मी इति कथ्यते
समीचीनं हा तत्र औन्नत्यम् इति धर्मः वृक्षे वर्तते अतः तत्र वृक्षः धर्मी इनि प्रत्ययः धर्मः अस्मिन् वृक्षे अस्ति अतः एषः वृक्षः धर्मी हा समीचीनं
उन्नत इति पदमात्रं वयं वदामः चेत् तत्र धर्मी न ज्ञायते वृक्षस्य औन्नत्यम् अस्ति वृक्षे औन्नत्यम् अस्ति इति वयं न जानीमः वृक्षः वा अथवा किमपि पदार्थः अस्ति वा इति वयं न जानीमः
कश्चन धर्मी अस्ति इति एव जानीमः
धर्मी अस्ति इति परन्तु कः इति वयं न जानीमः
हा इति न जानीमः तत्र वृक्षः इति यदि वदामः तदा एव वयं जानीमः अस्तु धर्मी वृक्षः अस्ति अतः तत्र उन्नतः इति पदेन यः बोधः भवति वृक्षेण भिन्नः बोधः भवति अतः तत्र उन्नतः वृक्षयोः पदयोः मध्ये भेदः वर्तते समीचीनं हा तत्र पूर्वं गुणगुणि इति प्रयोगः कृतः इदानीं तत्र धर्माधर्मी इति अस्ति प्रयोगः तावदेव अस्तु अतः तत्र इदानीं अग्रे तत्र अग्रे सरम समीचीनं भगिनि हा अस्तु अग्रे दीप्ति भगिनी पठितुम् इच्छति वा
अधुना केवलं शृणोमि सामर्थ्यं महोदय क्षम्यताम्
अस्तु अग्रे तत्र एतावत् हा उषा भगिनी न पठितवती खलु अस्तु उषा भगिनी अग्रे पठति वा
आं महोदय उन्नतशब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यम्
तथापि उन्नतशब्देन गुणीकः उन्नतशब्देन गुणीकः इति उन्नतशब्देन न ज्ञायते पदार्थः वृक्षः वा पुरुषः वा बालकः वा कुक्कुरः वा इति यावत् विशेष्यवाचकशब्दः न उच्चार्यते तावत् न बोध्यते आम् महोदय उन्नतशब्दः गुणिवाचकः गुणम् आश्रयितुं सूचयति इति कारणतः गुणिवाचकः गुणवाचकः अपि तु इति एवं वयं पठितवन्तः तथापि
विशेषणगुणवाचकः नास्ति इति तत्र वयं पूर्वम् उक्तवन्तः खलु तत्र उन्नतः इति गुणिवाचकः केवलं गुणिवाचकः इति उक्तवन्तः
एवं न तु गुणवाचकः इति सत्यं तथापि
उन्नतशब्देन न दृश्यते वा भगिनि उन्नतशब्देन
न ऐ वास् लुकिङ्ग् एट् मै वर्ड् ओके उन्नतशब्देन गुणीकः इति उन्नतशब्देन न ज्ञायते गुणि आशयः कः
एकवारम् आगतम् अस्ति भगिनि हा तत्र प्रायशः एकं त्यजामि हा हा अस्तु तत्र इति तथापि गुणीकः इति
न ज्ञायते पदार्थः गुणि इति पदार्थः वृक्षः वा पुरुषः वा बालकः वा कुक्कुरः वा बोध्यते चेत् अपि एव ज्ञायते न उक्तः चेत् न ज्ञायते न उच्चार्यते चेत् न बोध्यते
तत्र उन्नतः इति केवलं वदामश्चेत् तत्र अग्रे किमपि
पदार्थः सूचयितुं
शक्नोति यदि न तत्र तत्र तस्य उच्चारणं न भवति चेत् वयं न जानीमः तत्र तत्र वृक्षः वा पुरुषः वा बालकः वा इति न जानीमः तत्र उन्नतः शब्दः गुणिवाचकः एव अपि इति अस्ति किन्तु तत्र अस्मिन् तत्र औन्नत्यम् इति गुणः अस्ति इति तत् तादृशपदार्थः अस्ति इति सूचयति किन्तु साक्षात् पदार्थः कः इति न
सूचयति
हा न
बोध्यते
तस्य ज्ञानं न भवति हा समीचीनम् अत्र हा इदानीं तत्र
विशेष्यबोधकः
अग्रे अपि पठितुम् इच्छति वा भगिनि तत्र
आं महोदय विशेष्यबोधः यः वृक्षः सः वृक्षशब्देन बोध्यते औन्नत्यरूपेण यः गुणः सः उन्नतशब्देन बोध्यते उन्नतशब्दः वस्तुतः गुणवाचकः न किन्तु उन्नतशब्दस्य यः अर्थः गुणिविशिष्टयः गुणि तस्य एकदेशरूपेण औन्नत्यरूपेण तत्र बोध्यते औन्नत्यरूपगुणः तत्र बोध्यते ओके तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते अतः एव वदामः उन्नतशब्दः विशेषणवाचकः विशेष्यभूतः यः वृक्षः सः वृक्षशब्देन बोध्यते उन्नतशब्देन अनन्तरं वृक्षः इति वक्तः चेत् विशेष्यभूतः वृक्षः इति ज्ञायते औन्नत्यरूपः यः गुणः सः उन्नतरूपेण बोध्यते उन्नतः वृक्षः इति चेत् औन्नत्यरूपः गुणः वृक्षे अस्ति इति उन्नतशब्देन बोध्यते उन्नतशब्दः वस्तुतः गुणवाचकः न उन्नतशब्दः वयं ज्ञातवन्तः गुणिवाचकशब्दः एव गुणवाचकः न किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्टयः गुणि गुणि अत्र वृक्षः गुणविशिष्टयः गुणि उन्नत औन्नत्यविशिष्ट वृक्षः इति उन्नतशब्देन सूचयति तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते. एकदेशरूपेण एकदेशरूपेण कथं वक्तव्यम् अहं न जानामि.
सर्वं तत्र एकः भागः गुणः इति औन्नत्यम् इति गुणः इति अस्ति खलु.
औन्नत्यम् इति गुणः
एक औन्नत्यगुणविशिष्टगुणि कश्चन अस्ति इति एव उन्नतशब्दस्य अर्थः. हा तस्मिन् औन्नत्यरूपगुणः इति एकः भागः अस्ति.
एकः भागः उन्नतस्य उन्नत इति शब्देन औन्नत्यरूपगुणः एकभागः.
तस्मिन् तस्य पदस्य अर्थे पदस्य अर्थे औन्नत्यरूपगुणः तत्र कुत्र कुत्रापि वर्तते इति सूचयति खलु.
आं महोदय. उन्नतः इति शब्देन औन्नत्यरूपगुणः एकभागः इति सूचयति.
तत्र अस्ति इति सूचयति
औन्नत्य अस्ति इति सूचयति.
अतः तत्र उन्नतशब्दः विशेषणवाचकः इति वक्तुं
आं महोदय.
एतावत् तत्र प्रायशः तत्र तस्य समाधानं प्राप्तमस्ति. तत्र कथम् उन्नतः इति शब्दः
विशेषः
अस्ति अपि विशेषणवाचकः अपि भवितुम् अर्हति इति. किन्तु तत्र अस्तु, किन्तु तत्र एकः एव वक्तुम् एकः अंशः तत्र वक्तव्यः अस्ति. तत्र पूर्वं तत्र वयम् उक्तवन्तः तत्र उन्नतः इति शब्दः केवल
विशेषणवाचकपदं
गुणिवाचकः
गुणिवाचकः
इति उक्तवन्तः. तत्र उन्नतः यत्र त्रैविध्यमस्ति इति उक्तवन्तः. तत्र केवलं गुणवाचकशब्दाः केवलं गुणिवाचकः शब्दः अपि तत्र गुण अपि गुणिवाचकः शब्दाः इति उक्तवन्तः. तत्र केवलम् इति पदम् अस्ति, तस्य विशिष्टप्रयोगः अत्र कृतः अस्ति. केवलम् इत्युक्ते किम् इति पूर्वं वयं दृष्टवन्तः. तत्र नाम
गुणविशिष्टगुणिवाचकः
इति उक्तवन्तः. किन्तु तस्य किञ्चित् अधिकमपि तत्र वक्तुं शक्नुमः. नाम केवलमिति किमर्थम् उक्तं चेत् तत्र उन्नतः इति शब्दः तत्र उन्नतः वृक्षः इति चिन्तयामः. तत्र उन्नतः वृक्षः इति तत्र उन्नतः इति वृक्षस्य एव तत्र गुणिनं बोधयति इति जानीमः. किन्तु गुणं सूचयति, विशेषणवाचकशब्दः इति उक्तं. किन्तु साक्षात् उन्नतः तत्र वृक्षे नास्ति खलु. अतः तत्र उन्नत इति पदम् उपरि न स्थातुं शक्नोति.
नाम
तत्र उन्नतः इति वृक्षस्य स्तरे एव भवितुम् अर्हति, न तु उपरि. तत्र वयं दृष्टवन्तः गुणः उपरि अस्ति, अधोभागे पदार्थः खलु. पदार्थः इति तत्र विशेष्यं विशेष्यः खलु.
तत्र
अपि अत्र विशेषणम् तत्र यत्र उपरि स्थातुं शक्नोति तत्र केवलम् उपरि एव स्थातुं शक्नोति. तत्र तदस्ति केवलं गुणवाचकशब्दाः. तत्र केवलं गुणिवाचकः इत्युक्ते तत्र केवलम् अधोभागे एव स्थातुं शक्नोति, उपरि न स्थातुं शक्नोति. यद्यपि तस्मिन् विशेषणवाचकता अस्ति किन्तु तत्र उपरि न स्थातुं, तत्र साक्षात् गुणवाचकः नास्ति. तत्र यदि एतत् न स्थापयामः तत्र गुणिवाचकः अपि तत्र गुणवाचकः इति चिन्तयामः तत्र किं भवति. तत्र यत्र यथा श्वेतः इति पदम् अस्ति खलु, श्वेतः नीलः इति तादृश रूपवाचकवर्णवाचकशब्दाः. तत्र श्वेतः इति उपरि अपि स्थातुं शक्नोति, अधोभागे अपि स्थातुं शक्नोति. तादृशी स्थितिः उन्नतः इति शब्दे नास्ति
नास्ति
अतः तत्र केवलं गुणिवाचकः इति वदामः तत्र गुणवाचकः नास्ति गुणिवाचकः अस्ति केवलम् इत्युक्ते तत्र के गुणिवाचकः एव इति पूर्वं तत्र सुधा भगिनी अपि उक्तमस्ति तत्र यतोहि उन्नतः इति शब्दे तत्र सङ्केतः अस्ति गुणस्य सङ्केतः अस्ति किन्तु साक्षात् गुणस्य वाचकता नास्ति किन्तु विशेषणवाचकः इति उपरि न स्थातुं शक्नोति अतः तत्र वयं वदामः गुणवाचकः शब्दः नास्ति किन्तु विशेषणं किम् इति वदति इति कृत्वा विशेषणवाचकता अस्ति किन्तु साक्षात् विशेषणं नास्ति गुणः तत्र उपरि न स्थातुं शक्नोति यथा श्वेतः नीलः उपरि अपि स्थातुं शक्नुवन्ति अधोभागे अपि स्थातुं शक्नुवन्ति
तादृशः
इति नास्ति अतः तत्र केवलम् इति तत्र स्थापितमस्ति अस्तु तर्हि समीचीनमस्ति इदानीम् अग्रे तत्र अग्रिमभागः तत्र अस्ति लोके प्रयोगः भिन्नः तदनन्तरं किञ्चित् एव अस्ति तदनन्तरं वयं तत्र मूलविषयः तत्र गन्धवती पृथिवी इति यत् अस्ति तत्र आगच्छामः तत्र लक्षणम् अन्येषां पदार्थानां लक्षणं कथं कथं कुर्मः इति तत्सर्वं भवति एतत् केवलम् एतत् सर्वं करपत्रं केवलं किमर्थं तत्र गन्धवती पृथिवी इति अस्ति अपि किमर्थं तत्र भूतलं घटवत् इति तत्र वाक्यमासीत् घटवत् भूतलम् इति वाक्ये तत्र घटः एव विशेषणम् यतोहि पदार्थः एव विशेषणं घटेन एतत् भूतलं विशिष्यते इति अतः तत्र घटः साक्षात् पदार्थः एव विशेषणम् इति तत् सर्वं पाठयितुम् एतत् करपत्रं लिखितमस्ति तत्र केवलं किञ्चित् कश्चन भागः वर्तते तदनन्तरम् अग्रे तत्र विद्याधर्याम् अग्रे सर्तुं शक्नुमः अस्तु तर्हि प्रश्नः अस्ति वा समीचीनम् अस्ति वा एतावत् अस्तु तर्हि विरमामः सर्वेभ्यो नमः नमस्कारः अग्रिमवर्गे मिलामः धन्यवादः
धन्यवादः।